गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर गुरु साक्षात परब्रह्म तस्मै श्री गुरुवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र कालस्य लक्षणं गतवर्गे तत्र वयम् आकाशस्य लक्षणं तत्र शब्दगुणकम् आकाशम् इति दक्षिणवाक्ये तत्र आकाशं तत्र तत्र लक्षणवाक्ये किमर्थं श्रोत्रेन्द्रियं तत्र त्रैविध्यं न उक्तं यथा पृथिव्याम् उक्तम् इति तादृशविषयान् वयं गतवर्गे परिशीलितवन्तः. तत्र श्रोत्रेन्द्रियम् एकमेव आकाशमेव श्रोत्रेन्द्रियम् अपि यद् तत्र अस्माकं श्रोत्रेन्द्रियम् इति तत् केवलं तत्र कर्णशुष्कली मध्ये यः आकाशस्य भागः इति व्यवहारः भवति, नाम तत्र आकाशस्य विभागः स्वीकृत्य वयं विभागं स्वीकृत्य तत्र श्रोत्रेन्द्रियम् इति व्यवहारः भवति. अतः एव तत्र श्रोत्रेन्द्रियाणि अनेकानि इति गतवर्गे तत्सर्वं दृष्टवन्तः. अपि तत्र कालस्य लक्षणं तस्य आरम्भम् अपि कृतवन्तः. अद्य तत् पुनः तत्र कालस्य लक्षणम् इति पुनः तत्र लक्षणवाक्यात् आरभ्य पठामः. अपि तत्र लक्षणवाक्ये तत्र व्यवहारः इति पदमासीत् तस्य विवरणमपि तत्र स्पष्टता भवेत् तत्र व्यवहारः इत्युक्ते किम् इति तदपि किञ्चित् तत्र करपत्रम् अस्ति स्वरूपमहोदयस्य करपत्रद्वयं तत्र लिङ्क् प्रायशः आगतम् इति मन्ये तत्र ईमेल् द्वारा प्रेषितम् अस्ति मया तत्र नो चेत् अपि चिन्ता मास्तु अत्र एव तत्र पठितुं शक्यते हा किन्तु सौकर्यार्थं तत्र लिङ्क् अपि प्रेषितम् अतः तत्र पठामः. अस्तु तर्हि तत्र आरम्भे तत्र नीता भगिनी तत्र आरम्भं करोति वा तत्र तत्र अतीतादिव्यवहारहेतुः इति आरभ्य
अतीतादिव्यवहारहेतुः कालः स चैको विभुर्नित्यश्च घटः अतीतः न सम्प्रति अस्ति घटः वर्तते घटः भविष्यति इत्यादि प्रयोगाः अस्माभिः क्रियन्ते ते च न पूर्वोक्तेः द्रव्येः वर्णयितुं शक्यः अतः तादृशव्यवहारसम्पादकम् अतिरिक्तं द्रव्यम् अनुमीयते कालसंज्ञकम् इदमेव च लक्षणवाक्ये उक्तम् अतीतादिव्यवहारहेतुः कालः इति.
अस्तु किञ्चित् आधिक्येन मास्तु किन्तु किञ्चित् वदतु भगिनि.
अत्र कालस्य लक्षणं दत्तमस्ति अतीतादिव्यवहारहेतुः कालः स चैको विभुर् नित्यश्च. अत्र कालस्य विषये वयं दृष्टवन्तः कालस्य विभुत्वमस्ति तत्र आकाशस्य कालस्य दिक् आत्मा इति सर्वे परममहत् परिमाणं
समीचीनं
द्रव्यमस्ति तत् व्यवहारविषयस्य अत्र व्यवहार इति पदमस्ति तत् यदा सम्प्रति घटः नास्ति तत् घटः अतीतः
सम्प्रति नास्ति घटः नास्ति घटः आसीत् किन्तु इदानीं नास्ति अतः घटः अतीतः.
तत् वयं वदामः घटः वर्तते वा घटः भविष्यति घटः नास्ति घटः आसीत् इत्यादि प्रयोगः अस्माभिः क्रियन्ते. तत् ते च न पूर्वोक्तैः द्रव्यैः वर्णयितुं शक्यः. तत् व्यवहार शब्दस्य प्रयोजनं किमस्ति तत् व्यवहारशब्दं
व्यवहार इति न तत्र पूर्वोक्तैः द्रव्यैः नाम एतादृशप्रयोगाः वयं कुर्मः खलु प्रयोगान् वयं कुर्मः तत्र पूर्वोक्तैः द्रव्यैः तत्र एतावत् तत्र केषां द्रव्याणां तत्र विवरणं जातम्?
हा, तत् पृथ्वी वा जलं वा तेज वा वायु वा तेन वयं आकाशेन तादृशी प्रयोगाः येन द्रव्येन वयं न कर्तुं शक्नुमः तस्य वर्णनं
नाम तत्र अतीतः अथवा अस्ति अथवा भविष्यति इति तत्र केवलम् आकाशः अस्ति चेत् तत्र भविष्यति इति तादृशप्रयोगः न कर्तुं शक्नुमः तत्र
अतः तादृशव्यवहारसम्पादकम् अतिरिक्तं द्रव्यम् अनुमीयते कालसमये. अतः यदि वयं वर्णनं कर्तुम् इच्छामः तथा अतिरिक्तम् इत्युक्ते एडिशनल् इति द्रव्यस्य योजनाम् आवश्यकी.
यतोहि तत्र एतावत् येषां द्रव्याणाम् उल्लेखम् अथवा विवरणं कृतं तेषु तत्र तैः एषः व्यवहारः अथवा एषः प्रयोगः न शक्यते, अतः नूतनद्रव्यस्य आवश्यकता अस्ति. तस्य नाम भवति कालः. कालसंज्ञकं नाम नूतनद्रव्यस्य नाम नामकरणं काल इति
द्रव्यस्य नाम अस्ति कालः.
कालेन एतादृशव्यवहारः सम्पादयितुं शक्नुमः.
एतादृशव्यवहारः सम्पादयितुं काल इति नूतनद्रव्यस्य आवश्यकता अस्ति.
इदमेव
च लक्षणवाक्ये उक्तम् अतीतादिव्यवहारहेतुः कालः इति. अतः कालस्य लक्षणवाक्ये व्यवहार अतीतादिव्यवहारहेतुः कालः इति दत्तमस्ति.
हा, नाम हेतुः नाम कारणं. कालः नास्ति चेत् एतादृशव्यवहारः न कर्तुं शक्नुमः, प्रयोगः न कर्तुं शक्नुमः. अतीतः इत्यादिव्यवहारः न कर्तुं शक्नुमः. अतः कालः नास्ति चेत् न कर्तुं शक्नुमः. अतः कालः कारणमस्ति. कारणं विना कार्यं न भवति. तत्र कारणं किमपि द्रव्यं कारणं कदा जानीमः? तं तेन विना तत्र कार्यं न भवति चेत् अस्तु एतद् द्रव्यं कारणं भवेत् खलु. अतः तत्र कालं विना एतादृशप्रयोगः न भवति. अतः कालः हेतुः अथवा कालः कारणम् इति स्वीकृतम् अस्ति. समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे. हा अस्तु अग्रे राजी भगिनि.
सङ्ग्रहे व्यवहार इति मम ध्वनिः श्रूयते किल जि?
श्रूयते भगिनि, श्रूयते भगिनि.
सङ्ग्रहे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति. एकत्र सम्यक् अवगमनेन सर्वत्र तया एव रीत्या चिन्तनं सुकरं. व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इत्यर्थः. यथा केनचित् उक्तं घटः अतीतः इति, तादृशभाषणं श्रुत्वा श्रोतुः अतीत घटविषयकं ज्ञानम् उत्पद्यते. अर्थात् घटनिष्ठविशेषतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् उत्पद्यते. अतः तथाविधज्ञानं प्रति शब्दप्रयोगः कारणम्. तादृशः च शब्दप्रयोगः कालाख्यं द्रव्यं स्वीकृत्य न कर्तुं अस्वीकृत्य न कर्तुं शक्यः इति तं प्रति कारणत्वमेव कालस्य लक्षणम्.
किञ्चित् वदतु भगिनि अग्रे. तत्र एतदेव विशदरूपेण अग्रे पश्यामः करपत्रपठनेन. किन्तु किञ्चित् वदतु तत्र. तत्र सङ्ग्रहे व्यवहारः
अष्टौ लक्षणानि सन्ति. अस्तु, अस्माकं पुस्तके तर्कसङ्ग्रहे व्यवहारः इति पदं लक्षणे प्रयुक्तम् अस्ति. अष्टस्थले अष्टलक्षणानि मध्ये व्यवहार इति पदम् उपयोगं कृतम्
कृतमस्ति. समीचीनं. तत्र व्यवहारस्य लक्षणं नास्ति, किन्तु अन्येषां लक्षणे लक्षणसमये तस्मिन् समये तत्र व्यवहारः इति पदम् उक्तमस्ति. यथा अत्र तत्र कालस्य लक्षणसमये व्यवहारः इति पदम् अस्ति, नाम काललक्षणवाक्ये व्यवहारः इति पदं युक्तमस्ति, वाक्ये युक्तमस्ति, संयुक्तमस्ति. तथैव तत्र अथवा घटितम् अस्ति, तथैव अन्ये तत्र अष्टौ लक्षणेषु तत्र एतादृशम् अपि अस्ति. अतः तत्र व्यवहारः अपि सर्वत्र एकमेव अर्थः. अत्र व्यवहारः इति पदस्य अर्थः यः अत्र स्थाप्यते, तम् अर्थं स्वीकृत्य एव अन्यानि लक्षणवाक्यानि रचितानि.
एकत्र सम्यक् अवगमनेन सर्वत्र तया एव रीत्या चिन्तनं सुकरम्. वयम् एकस्मिन् स्थले एव वयं तस्य अर्थं सम्यक् अवगच्छामः चेत् समानरीत्या एव सर्वत्रापि भवति.
नाम यदा अग्रे तत्र अन्यानि लक्षणवाक्यानि पठामः तदा अत्र तत्र व्यवहारः इति पदमस्ति चेत् तद् पूर्वमेव जानीमः. केवलं तदानीं तत्र अस्माकं मनसि केवलम् अन्येषां पदानाम् अवगमनमेव तत्र कर्तव्यं भवति अस्माभिः तस्मिन् समये.
तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इत्यर्थः. अर्थः कः इति वयं पश्यामः चेत् व्यवहार इति पदं केवलं शब्दप्रयोगः. कीदृशः
शब्दप्रयोगः इति न, विशिष्टशब्दप्रयोगः नाम
शब्दप्रयोगः. ज्ञान कीदृशः विशेषं तत्र किम् इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति. अस्माकं मध्ये ज्ञानम् उत्पद्यते इति कारणात् ज्ञानजनकशब्दप्रयोगः इति अर्थः.
इति अर्थः व्यवहारपदस्य. नाम तत्र व्यवहार इति लौकिक अर्थः नास्ति, पारिभाषिकपदमस्ति. पारिभाषिक नाम टेक्निकल्, तत्र न्यायशास्त्रस्य पारिभाषिकपदमस्ति. अतः तस्य अर्थः सर्वत्र ज्ञानजनकशब्दप्रयोगः इति. अग्रे
यथा केनचित् उक्तं घटः अतीतः इति, तादृश भाषणं श्रुत्वा वयम् एक उदाहरणं स्वीकुर्मः. अत्र घटः अतीतः इति, अतः पूर्वम् आसीत् इति वयं स्वीकुर्मः. तादृशभाषणं श्रुत्वा श्रोतुः अतीत घटविषयकं ज्ञानम् उत्पद्यते. सो एतद् श्रुत्वा वयं पूर्वं घटः आसीत् इति अवगमनम् अस्माभिः मध्ये अस्माकं मध्ये भवति. इदानीं घटः नास्ति, पूर्वं घटः आसीत् इति अवगमनं भवति. अर्थात् घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिष्ठप्रकारता निरूपकं ज्ञानम् उत्पद्यते.
एतत् सर्वम् अग्रे तत्र स्पष्टतया पश्यामः, किन्तु अग्रे अतः तथाविधज्ञानं
प्रति शब्दप्रयोगः कारणम्. एतादृश अवगमनार्थं वयं व्यवहार इति एतादृशशब्दप्रयोगः
अत्र शब्दप्रयोगः एतादृशज्ञानं प्रति कारणमस्ति इति कृत्वा एषः शब्दप्रयोगः व्यवहारः भवति, यतोहि तेन शब्दप्रयोगेन ज्ञानम् उत्पन्नम् अस्ति खलु.
तादृशश्च शब्दप्रयोगः कालाख्यं द्रव्यम् अस्वीकृत्य न कर्तुं शक्यः इति सम्प्रति कारणत्वमेव कालस्य लक्षणम्. सो एतादृशशब्दप्रयोगं विना वयं कालम् इति द्रव्यम्
एतादृशशब्दप्रयोगः घटः अतीतः इति यदि शब्दप्रयोगः भवति तेन ज्ञानम् उत्पद्यते चेत् अत्र कालं नास्ति चेत् घटः अतीतः इति तस्य अवगमनं भवति वा? कालः नास्ति चेत् तत्र घटः अतीतः इति यदि इति कोऽपि वदति चेत् ज्ञानम् उत्पद्यते वा? न उत्पद्यते. तस्य वाक्यस्य अर्थः निरर्थकं भवति खलु वाक्यं, यदि कालः नासीत् घटः अतीतः इति वाक्यं निरर्थकं वाक्यं भवति. अतः तादृश वाक्य तत्र शब्दप्रयोगं प्रति कालः इति द्रव्यं भवेत्. यदि कालः इति नास्ति चेत् एतादृश तत्र काल शब्दप्रयोगः न कर्तुं शक्नुमः अतः शब्दप्रयोगं प्रति कालः इति कारणं भवति एतत् कारणत्वम् एव
कालस्य
अतः तत्र चित्रम् अग्रे अपि तत्र स्पष्टतया निरूपयामः किन्तु स्थूलरीत्या एकवारं वदामः नाम शब्दप्रयोगः ज्ञानं प्रति कारणं कालः शब्दप्रयोगं प्रति कारणम् अतः शब्दप्रयोगः एकस्मिन् समये कारणमपि अस्ति कार्यमपि अस्ति यतोहि शब्दप्रयोगः ज्ञानं प्रति कारणं शब्दप्रयोगः कालं प्रति कार्यं खलु इति भवति नाम तत्र एकस्मिन् समये महिला मातापि भवितुमर्हति पुत्री अपि भवितुमर्हति खलु तथैव अत्र तथैव तत्र ज्ञानं प्रति कारणं कालम् अपि शब्दप्रयोगं प्रति कारणम् इति अतः तत्र अस्मिन् तत्र परिच्छेदद्वये बहु किमपि अस्ति इति कृत्वा तत्र वयं करपत्रं पठामः येन तत्र विशदरीत्या तत्र सर्वं स्पष्टं भवति अत्र करपत्रे तत्र किं किम् अस्ति इति एकवारं वदामि तत्र विभु द्रव्यम् इति विभु इति पूर्वमपि आगतं शब्दगुणकम् आकाशं तच्च एकं विभुं नित्यं च इति अत्रापि विभु द्रव्यम् इति अस्ति पूर्वस्मिन् वर्गे अपि तत्र विभु भूतद्रव्यम् इति तत्र तस्य उल्लेखः तयोः उल्लेखः कृतः आसीत् अतः तत्र तदपि सम्यक्तया पठामः अपि अग्रे व्यवहारः इति पदस्य अर्थः कः अपि अस्मिन् चित्रे किं किम् अस्ति इति एतत् सर्वं पठामः तर्हि अस्तु धन्यवादः भगिनि अस्तु अग्रे सरामः तर्हि हा धन्यवादः भगिनि अस्तु अग्रे तत्र धन्यवादः भगिनि
अत्र व्यवहार इति पदस्य ज्ञानजनकशब्दप्रयोगः इति अस्ति खलु सर्वाः पदाः अपि ज्ञानजनकम् एव ददाति किल वयं किमपि पदं वदामः चेत् अपि तस्य ज्ञानम् अस्माभिः भवति अस्माकमपि
अस्तु 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 अग्रे अग्रे तत्र उदाहरणं दीयते अपि स्पष्टता भवति भगिनि तत्र अग्रे गत्वा व्यवहार इति विषये एव तत्र किञ्चित् लिखितमस्ति तस्मिन् समये पुनः तत्र प्रश्नं पृच्छतु अस्तु तर्हि धन्यवादः अस्तु अग्रे तत्र योगेन्द्रमहोदय अग्रे पठति वा इदानीं तत्र मूर्तद्रव्यं विभुद्रव्यं भूतद्रव्यं च इति
मूर्तद्रव्यं विभुद्रव्यं भूतद्रव्यं च प्रश्नः मूर्तद्रव्यं नाम किं विभुद्रव्यं नाम किम् भूतद्रव्यं नाम किम् उत्तरं प्रथमतया क्रिया नाम का इति वक्तव्यं न्याये या न्याये क्रिया कर्म च समानार्थकशब्दौ तर्कसङ्ग्रहवाक्ये पञ्चकर्माणि निदर्शनार्थं दीयन्ते उत्क्षेपणापक्षेपणकुञ्चनप्रसारणं प्रसारणगमनानि पञ्चकर्माणि
हा इति हा तत्र पूर्वं वयं दृष्टवन्तः तत्र कर्म इत्युक्ते पञ्चकर्माणि सन्ति इति तत्र उद्देशग्रन्थे आसीत् खलु यथा नामकरणं कृतवन्तः कति गुणाः सन्ति इति तत्र पञ्चकर्माणि सन्ति कर्म इत्युक्ते क्रिया क्रिया इत्युक्ते किं समानार्थकशब्दौ इत्युक्ते
कर्म एव क्रिया क्रिया एव कर्म न्यायदर्शने
न्यायदर्शने हा अपि तर्कसङ्ग्रहे पञ्चकर्माणि अथवा पञ्चक्रियाः
निर्दिष्टानि सन्ति
केवलं तत्र उदाहरणार्थं दीयन्ते तत्र उत्क्षेपणम् अपक्षेपणम्
उत्क्षेपणम् उपक्षेपणम्
अपक्षेपणम् आकुञ्चनं
कुञ्चन प्रसारणं गमनानि
तत्र यद् उत्क्षेपणम् अपक्षेपणम् आकुञ्चनं प्रसारणं नास्ति तत्सर्वं गमने अन्तर्भूतम् अस्ति तावदेव तत्र केवलं पञ्चकर्माणि इति तत्र उदाहरणार्थम् इति चिन्तयामः. समीचीनं महोदय. अस्तु, अतः तत्र क्रिया इति किम् इति वयं जानीमः. क्रिया इत्युक्ते किम् इति. अस्तु, समीचीनम्. अस्तु, अग्रे सरामः तर्हि. अग्रे तत्र विमला भगिनी अग्रे पठति वा?
आं महोदय, अत्र एतदाधारेण मूर्तद्रव्यं नाम किम् इति वदेम. न्यायशास्त्रे मूर्तः इत्युक्ते क्रियाश्रयः. पुस्तकम् इतः तत्र स्थाप्यते चेत् काचन गमनक्रिया साधिता, पुस्तकं च गमनक्रियायाः आश्रयः. अग्रे पठामि.
तत्र
यत्किमपि पार्थिवद्रव्यं भवति तस्मिन् पार्थिवद्रव्ये क्रिया, यथा उत्क्षेपणक्रिया, अपक्षेपणक्रिया, आकुञ्चनक्रिया, प्रसारणक्रिया, गमनक्रिया च सम्भवति इति कृत्वा तच्च पार्थिवद्रव्ये क्रियायाः आश्रयः. एवमेव
किं भवति
अत्र मूर्तद्रव्यमिति किम् इति उच्यते. न्यायशास्त्रे मूर्तः इत्युक्ते यत्किमपि क्रिया अस्ति तस्य आश्रयः मूर्तः इति. यथा अत्र उदाहरणमस्ति, पुस्तकम् इतः ततः अपि यदि स्थाप्यते तत्र गमनक्रिया साधिता, अपि च गमनक्रियायाः आश्रयः अस्ति पुस्तकम्. तथैव यत्किमपि पार्थिवद्रव्यं भवति तस्मिन् द्रव्ये पञ्चविधाः क्रियाः सन्ति, यथा उत्क्षेपणम्, अपक्षेपणम्, आकुञ्चनं, प्रसारणं, गमनम् इति सम्भवति. पार्थिवद्रव्य एव एतेषां क्रियायाम् एतासां क्रियायाम् आश्रयः.
अतः अत्र तत्र यत्किमपि तत्र पुस्तकं वा उत्पीठिका वा लेखनी वा मनुष्यः वा तेषु सर्वेषु तत्र क्रिया भवितुम् अर्हति. अतः ते सर्वे मूर्तद्रव्याणि, खलु? मूर्तद्रव्यम् इति वक्तुं शक्यते. अग्रे एवमेव
जलं, तेजः, वायुः च एषां त्रयाणां गमनादिकं सम्भवति इति कारणेन इमानि त्रीणि अपि क्रियावन्ति द्रव्याणि. तदा मनः अपि तथा. मनः चलति, एकत्र न तिष्ठति, सर्वदा चलत् एव भवति. अतः मनसि क्रिया अस्ति. तर्हि आहत्य पञ्चमूर्तद्रव्याणि सन्ति, पृथिवी, जलं, तेजः, वायुः, मनः च इति अत्र उक्तम्. एतेषु सर्वेषु क्रिया अस्ति इति कृत्वा मनसि अपि, मनः चञ्चलम् अस्ति यतः ततः धावति कृत्वा
सुकरं, तत्र सुकरमस्ति वा मनस् मनः एकस्मिन् स्थले
न तिष्ठति
स्थापितम्. अतः तत्र मनः सर्वदा चलत्
अस्ति, चलति इत्यतः कारणेन पृथिवी, जलं, तेजः, वायुः, मनः च पञ्चद्रव्याणि मूर्तद्रव्याणि इति कथ्यते.
तत्र आकाशः, तत्र आत्मा, दिक्, कालः, तेषु तत्र क्रिया न भवति. तत्र केवलं पञ्चमूर्तद्रव्याणि सन्ति. मूर्तद्रव्यं नाम क्रिया यस्मिन् भवितुम् अर्हति. तत्र सर्वाः क्रियाः भवेयुः इति न, तत्र गमनक्रिया भवति चेत् अथवा आकुञ्चनक्रिया भवितुम् अर्हति चेत् पर्याप्तम् तत्र मूर्तद्रव्यम् इति. एका क्रिया सम्भवति चेत् पर्याप्तम् अस्ति. अस्तु, समीचीनं भगिनी, धन्यवादः.
धन्यवादः महोदय.
अस्तु, अग्रे तत्र शुभदा भगिनी अद्य तत्र एतत् पठितुं शक्यते इति मन्ये भगिनी, खलु?
अस्तु महोदय, पठामि.
इदानीं विभुद्रव्यं.
एकनिमिषं महोदय. अधुना विभुद्रव्यं नाम किम् इति वदेम. यत् विभुद्रव्यम् उच्यते तत् सर्वव्यापी इति सामान्यबोधः, किन्तु ततः अग्रे न्याये किञ्चित् वक्तव्यं भवति. सर्वमूर्तद्रव्यसंयोगित्वं यस्मिन् अस्ति तत् विभुद्रव्यम्. घटः इति मूर्तद्रव्यं, स च घटः यत्र कुत्रापि भवतु तस्य संयोगः आकाशेन सह भवति एव. तथैव किमपि मूर्तद्रव्यं स्वीकुर्मः तस्य सदा सर्वत्र आकाशेन सह संयोगः भवति इति कृत्वा आकाशः सर्वमूर्तद्रव्यसंयोगी.
हा तावत्पर्यन्तं.
हा महोदय, तत्र अधुना मूर्तद्रव्यं वयं दृष्टवन्तः. अधुना अन्यत् अस्ति विभुद्रव्यम् इति. विभुद्रव्यं नाम
विभुद्रव्यं तत्र आकाशलक्षणे लक्षणानन्तरं तत्र आकाशः विभु इति उक्तं, कालः अपि विभु इति उक्तं खलु.
यत् विभुद्रव्यम् इति उच्यते तत् सर्वव्यापी इति सामान्यबोधः. तस्य तस्य सञ्चारः तु सर्वस्थले इति.
तत्र सर्वत्र अस्ति. तत्र सर्वव्यापी नाम सर्वत्र अस्ति इति सामान्यबोधः, सामान्यतया उच्यते. किन्तु
सामान्यतया उच्यते लौकिकभाषया सामान्यतः वयं सर्वव्यापी इति तस्य नाम इति वयं जानीमः.
विभु इति चिन्तयामः. किन्तु
ततः अग्रे न्याये तु तस्य किञ्चित् अन्या परिभाषा वर्तते. सर्वमूर्तद्रव्यसंयोगित्वं यस्मिन् अस्ति तत् विभुद्रव्यम् इति उच्यते न्यायभाषे, न्यायभाषायां. सर्वमूर्तद्रव्यसंयोगित्वं नाम किं?
घटः मूर्तद्रव्यमस्ति, संयोगि इत्युक्ते किम्? संयोगित्वम् इति भावः अस्ति. कस्य
भावः? संयोग इत्यस्य भावः
संयोगी इत्यस्य भावः संयोगित्वम्. इदानीं संयोगी कः अस्ति? यस्मिन् संयोगः अस्ति.
यस्मिन् संयोगः अस्ति सः संयोगी.
तत्र संयोगी तत्र तस्य भावः नाम संयोगित्वं कुत्र अस्ति?
तादृशः गुणः यस्मिन् अस्ति, संयोगित्वं यस्मिन् अस्ति सः
कस्मिन् भवति? संयोगिनि एव भवति खलु. संयोगी नकारान्तपदं खलु, अतः सप्तमी अस्ति संयोगिनी.
आमां
संयोगिनी मध्ये एव संयोगित्वं भवति. तत्र वयं जानीमः त्वम् इत्युक्ते उपरि गमनं खलु, भाववाचकपदं त्वम् इत्यनेन संयोगी अस्ति, अधोभागे संयोगी अस्ति खलु. तत्र संयोगी
संयोगी
तस्मिन् भावः त्वम् इति उपयोगेन तत्र उपरि गच्छामः खलु.
उपरि गच्छामः.
अतः तत्र संयोगित्वं कुत्र अस्ति? संयोगिनी अस्ति.
संयोगिनी संयोगित्वम् अस्ति सप्तमी विभक्ति.
अतः तत्र किन्तु कीदृशसंयोगनाम संयोगी नाम यस्मिन् संयोगः वर्तते. कीदृशसंयोगः वर्तते इति अत्र दत्तम्?
अत्र दत्तं घटः इति मूर्तद्रव्यं.
अत्र विभुद्रव्यं किम् अस्ति? यस्मिन्
तस्य यस्मिन् सर्वमूर्तद्रव्येन सह तस्य संयोगित्वम् अस्ति, संयोगः अस्ति, अतः विभुद्रव्यं
तदेव विभुद्रव्यम् इति उच्यते.
तदेव विभुद्रव्यम्. अतः तस्य संयोगः आकाशेन सह संयोगः भवति इति कृत्वा आकाशः सर्वमूर्तद्रव्यसंयोगी इति वयं वदेम.
घटः कुत्रापि, घटः इति मूर्तद्रव्यम्. उदाहरणार्थं
किमपि मूर्तद्रव्यं वयं स्वीकुर्मः नाम किमपि पार्थिवद्रव्यं, यथा वयं दृष्टवन्तः पार्थिवद्रव्यम् अस्ति चेत् वयं तत् स्वीकुर्मः चेत् पार्थिव द्रव्येन सह तस्य संयोगः आकाशेन सह भवति इति कृत्वा आकाशः सर्वमूर्तद्रव्यसंयोगी.
तेन न पर्याप्तं, केवलं पार्थिवद्रव्येन सह इति न, जलेनापि. जलेनापि, तेजसा अपि, वायुनापि, मनसा अपि खलु.
किमपि स्मूर्तद्रव्यं भवेत् तस्य संयोगः आकाशेन सह भवति, अतः आकाशः सर्वमूर्तद्रव्यसंयोगी इति भवति.
अतः तत्र आकाशः इति विभुद्रव्यम् इति आगतं. समीचीनम्. तथैव अग्रे
एवमेव यत्किमपि मूर्तद्रव्यं स्वीकुर्मः, पृथिवी, जलं, तेजः, वायुः, मनः, तस्य सर्वत्र सर्वदा संयोगः भवति, न केवलम् आकाशेन अपि तु कालेन सह, दिशा सह, आत्मना सह च इति कृत्वा चत्वारि प्रभुद्रव्याणि सन्ति.
क्षम्यतां,
विभुद्रव्याणि सन्ति आकाशः, कालः, दिक्, आत्मा च.
तत्र कालः सर्वत्र वर्तते, सर्वे तत्र सर्वे पदार्थाः तत्र काले वर्तन्ते इति नाम तत्र सर्वाणि मूर्तद्रव्याणि तत्र कालेन सह भवन्ति एव. अतः तत्र संयोगः वर्तते. दिक् दिशा सह अपि तत्र संयोगः वर्तते, अपि आत्मना सह अपि. अतः तत्र विभुद्रव्याणि
चत्वारि सन्ति,
आकाशः, कालः,
दिक्, आत्मा च.
आत्मा इति अतः तत्र विभुद्रव्यमिति तत्र स्पष्टमस्ति इति मन्ये खलु इदानीं.
परन्तु आत्मना इति न अवगतवती महोदय.
हा, तत्र आत्मना अपि तत्र समीचीनं भगिनि. नाम तत्र एतेषां तत्र लक्षणम् अस्माभिः तत्र न परिशीलितं. कालः इति एतस्य कुर्वन्तः स्मः, किन्तु दिक् अपि आत्मा तत्र तेषां लक्षणं न कृतम्. अतः तत्र अग्रे यदा भविष्य भवति तदा अवगच्छामः. अस्तु, तत्र संयोगः भवति इति.
अस्तु महोदय,
समीचीनं भगिनि, धन्यवादः. प्रश्नः अस्ति वा एतावत्? तत्र विभुद्रव्यं नाम किं, मूर्तद्रव्यं नाम किम्? अस्तु, समीचीनं भगिनि. अस्तु, अग्रे तत्र
कश्चन प्रश्नः महोदय, क्षम्यतां महोदय. मनः अपि इदानीं विभु इदानीम् उक्तं खलु, मनसा आत्मना सह, दिशा सह.
आत्मा इति भिन्नं, मनः इति भिन्नं खलु भगिनि?
भिन्नं सत्यं, किन्तु इदानीं मूर्तद्रव्येषु मध्ये मनः अस्ति, विभुद्रव्येषु मध्ये आकाशकालदिक् आत्मा अस्ति. इदानीम् आकाशः, कालः च आकाशे मनः वर्तते इति अर्थः भवति खलु? मनसः योगित्वं, संयोगित्वं भवति
खलु?
तत् कथं भवति? मनः इति तु न दृश्यते खलु?
न दृश्यते. तेन किं तत्र परमाणुः न दृश्यते, किन्तु तस्य संयोगः अस्ति तत्र आकाशेन. नाम आकाशः सर्वत्र वर्तते, एकः अस्ति इति कृत्वा. अतः तत्र यत्किमपि तत्र मनः लघु अतिलघु भवेत्, किन्तु संयोगः वर्तते. नाम आकाशेन तस्य तत्र सम्पर्कः, संयोगः अस्ति. तथैव
कालः अपि अस्ति इति,
दिशा सह अपि अस्ति. यद्यपि तत्र लघु अस्ति, तथापि. अपि तत्र द्रव्ययोः मध्ये तत्र संयोगः इति, अतः तत्र संयोगः इति स्वीकृतम्. अस्तु, अग्रे तत्र.
धन्यवादः.
अस्तु, अग्रे तत्र शोभाभगिनी अग्रे पठितुम् इच्छति वा?
आं महोदय. अधुना अधुना भूतद्रव्यं नाम किम् इति वदेम. बहिरिन्द्रियग्राह्यविशेषगुणवत्वं भूतस्य लक्षणम् इति. पुनः पठामि. बहिरिन्द्रियग्राह्यविशेषगुणवत्वं भूतस्य लक्षणम् इति. इत्युक्तौ बहिरिन्द्रियैः ग्राह्यः यः विशेषगुणः तस्य आशयः भूतद्रव्यम् इति. गन्धः ग्राह्यः घ्राणेन्द्रियेण, तच्च घ्राणेन्द्रियं बहिरिन्द्रियम् अस्ति. स च गन्धः इति गुणः पृथिव्याम् आश्रितः, अतः गन्धवत्वं पृथिव्याम् अस्ति. एवं च बहिरिन्द्रियग्राह्यविशेषणविशेषगुणवत्त्वं पृथिव्याम् इत्यनेन पृथिवी भूतद्रव्यं तथैव शीतस्पर्शः इति बहिरिन्द्रियग्राह्यः गुणः जले उष्णस्पर्शः इति बहिरिन्द्रियग्राह्यः गुणः तेजसि रूपरहितस्पर्शः इति बहिरिन्द्रियग्राह्यः गुणः वायौ शब्दः इति बहिरिन्द्रियग्राह्यः गुणः आकाशे अनेन आहत्य पञ्चभूतद्रव्याणि सन्ति पृथिवी जलं तेजः वायुः आकाशः च हा अत्र भूतद्रव्यम् इति इत्यस्य वर्णनं भवति बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वं भूतस्य लक्षणम् इति तत्र
भूतद्रव्यं किं नाम बहिरिन्द्रियग्राह्य तादृशः गुणः विशेषगुणः नाम
बहिरिन्द्रिय ये बहिरिन्द्रियैः ग्राह्यन्ते इति
यस्य गुणस्य ग्रहणं बहिरिन्द्रियेण
भवति
तादृशगुणः विशेषगुणः
विशेषगुणः इति
तादृशगुणस्य आश्रयः भूतद्रव्यम् तत्र भूतद्रव्ये किं भवेत् भूतद्रव्ये एकः गुणः अस्ति स च गुणः बहिरिन्द्रियेण ग्राह्यः अस्ति तादृशं गुणः अस्ति चेत् भूतद्रव्यं भवति अतः
इत्युक्ते तत्र बहिरिन्द्रियैः यत् किमपि ग्राह्यते तत् गुणः
यः कोऽपि गुणः बहिरिन्द्रियैः ग्राह्यते तादृशगुणस्य आश्रयः भूतद्रव्यम्
हा यत् ग्राह्यते तत् विशेषगुणः इति उच्यते तस्य आश्रयः भूतद्रव्यम् इति उच्यते
इति सत्यं हा तथैव अस्ति अतः तत्र आश्रयः इति कथं जानीमः
तस् बहिरिन्द्रियैः ग्राह्यते चेत्
विशेषगुणः अस्ति
विशेषगुणः अस्ति किन्तु आशयः यत्र कुत्रापि भवेत् तस्य
भूतस्य लक्षणम् इति अस्ति तत्र कुत्र आशयस्य उल्लेखः कृतः
भौतिक इति अर्थे
तत्र बहिरिन्द्रियग्राह्य इत्युक्ते विशेषगुणः खलु
सत्यम्
इदानीम् अत्र तत्र एतद् भागं त्यजामः यतोहि विशेष इत्युक्ते तत् खलु बहिरिन्द्रियग्राह्यः इत्युक्ते विशेषः विशेषगुणवत्त्वं भूतस्य लक्षणम् अतः तत्र विशेषगुणवत्त्वं खलु
गुणवत्त्वम् इत्युक्ते गुणः एव इति खलु महोदय तत्र
गुणवत्त्वम् इत्युक्ते यस्मिन् तत्र भूतस्य लक्षणं नाम एतद् वत्त्वं कुत्र भवति एतत् वत्त्वं कुत्र भवति गुणवत् इत्युक्ते किं
गुण यस्मिन्
गुणः अस्ति
गुणः अस्ति यस्मिन् यस्य वा गुणः अस्ति इति
वत् इति तत्र मतुप् खलु अतः अधोगमनं गुण यस्मिन् अस्ति अतः गुणवत् इति द्रव्यम् अपि तस्य भावः त्वम् इति पुनः गुणः एव
गुणवत्त्वम्
इत्युक्ते गुणः तादृशगुणः यस्मिन् वर्तते यतोहि लक्षणं लक्ष्ये भवेत् खलु अतः तस्य आश्रयः एतादृशगुणः यस्मिन् तस्य आश्रयः एव भूतद्रव्यम् अतः विशेषगुणः अस्ति तस्य आश्रयः अस्ति भूतद्रव्यम् अपि विशेषः इत्युक्ते बहिरिन्द्रैः
यत् ग्राह्यते
तादृशगुणः सगुणः अतः तत्र गन्धः इति इदानीं तत्र पृथिवी भूतद्रव्यं वा इति प्रश्नः भवती किं वदति तर्हि
तस्मिन् गन्धः इति गुणः अस्ति अपि बहिरिन्द्रियैः ग्राह्यते
गन्धः इति गुणः घ्राणेन्द्रियेण
ग्राह्यते ग्राह्यः अस्ति अतः विशेषगुणः इति वक्तुम्
अपि ग्राणेन्द्रियं बहिरिन्द्रियम् अस्ति
बहिरिन्द्रियम् अस्ति तस्मात् ग्राह्यते इति कृत्वा तत्र भूतद्रव्ये अस्ति आशय
गन्धः विशेषगुणः अस्ति
आम् विशेषगुणः अस्ति हा यतोहि ग्राह्यते इति कृत्वा विशेषगुणः अस्ति अपि च अस्ति चेत् तस्य आशयः भूतद्रव्यं भवति इति
समीचीनं नाम गन्धवत्वं पृथिव्याम् अस्ति नाम गन्धवत्वम् इत्युक्ते गन्धः गन्धस्य आशयः पृथिवी अतः बहिरिन्द्रियग्राह्यविशेषगुणवत्वं पृथिव्याम् अस्ति इत्यनेन पृथिवी भूतद्रव्यम् इदानीं तत्र समीचीनं भगिनि हा इदानीम् अग्रे तत्र नरसिंहमहोदय इदानीं तत्र यथा वयं प्रदर्शितवन्तः तत्र पृथिवी भूतद्रव्यं तथैव तत्र जलमपि भूतद्रव्यम् इति प्रदर्शयतु महोदय
हा महोदय तत्र जलस्य लक्षणं शीतस्पर्शवत्यः आप इति लक्षणमस्ति शीतस्पर्शवत्यः इति बहिरङ्गेण बहिरिन्द्रियेण वयं ज्ञातुं शक्नुमः त्वगिन्द्रियेण
भवति तस्य ज्ञानं
भवति जलमपि भूतद्रव्यं भवति
हा नाम शीतस्पर्शः विशेषगुणः अस्ति यतोहि सः बहिरिन्द्रियग्राह्यः गुणः अस्ति अपि शीतस्पर्शस्य आशयः जलमस्ति इति कृत्वा जलमपि तत्र भूतद्रव्यम् अस्ति तथैव उष्णस्पर्शस्य आशयः तेजः 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 अपि तत्र भूतद्रव्यम् अपि वायुः तथैव रूपरहितस्पर्शः इति वायोः तादृशगुण वायो अस्ति इति कृत्वा वायुः तादृशगुणस्य आश्रयः अतः वायुः अपि भूतद्रव्यम् इदानीं तत्र शब्दः इति हा तत्र शब्दः इति तस्मिन् विषये किञ्चित् वदतु महोदय
शब्दः इति बहिरिन्द्रियग्राह्यगुण आकाशे अनेन आहत्य पञ्चभूतद्रव्याणि सन्ति पृथ्वी जलं तेज वायुः आकाश च शब्द शब्दगुणकर्म आकाशं तच्चेकविभुनित्यश्च इति रात्रि तदपि बहिरिन्द्रियेण
शब्दः इति गुणः बहिरिन्द्रियैः ग्राह्य वा आं खलु
आम् तत्र
श्रोत्रेन्द्रियेण
ग्राह्यमस्ति
अतः तत्र श्रोत्रेन्द्रियेण ग्राह्यः गुणः शब्दः तस्य आश्रयः अस्ति
आकाशः
अतः आकाशः भूतद्रव्यम् अस्ति
इदानीं मूर्तद्रव्यमेव भूतद्रव्यं भवति वा महोदय मूर्तद्रव्यमेव भूतद्रव्यं भवति अत्र
न तत्र मूर्तद्रव्येषु तत्र आकाशः नास्ति महोदय विभुद्रव्य मध्ये आकाशः अस्ति मनः मूर्तद्रव्ये मनः अस्ति किन्तु भूतद्रव्ये मनः नास्ति भूतद्रव्येषु मनः नास्ति आकाशः अस्ति तत्र पृथ्वी जलं वायुः तेजः तेषां तत्र तत्र पृथ्वी जलम् अपि तत्र तेजः तेषां तत्र प्रत्यक्षज्ञानं भवति वायोः न भवति आकाशस्य अपि प्रत्यक्षज्ञानं न भवति किन्तु तस्मिन् एषः गुणः अस्ति इति कृत्वा सः भूतद्रव्यं भवति अतः तत्र भूतद्रव्ये भूतद्रव्यं प्रत्यक्षद्रव्यम् इति नास्ति किन्तु भूतद्रव्ये कोऽपि गुणः विशेषगुणः भवेत् नाम यः गुणः बाह्येन्द्रियैः ग्राह्यः तादृशगुणः एकः अस्ति चेदपि तत्र भूतद्रव्यं भवति अतः तत्र मूर्तद्रव्यं विभूद्रव्यं भूतद्रव्यम् इति श्रेणित्रयम् एतावत् दृष्टवन्तः एतावत् कोऽपि प्रश्नः अस्ति वा तत्र स्वरूपमहोदयेन लिखितं करपत्रं साधारणतया बहु स्पष्टता उत्पादयति इति मम अनुभवः तत्र एतावत् कोऽपि प्रश्नः अस्ति वा स्पष्टमस्ति वा अग्रे सरामः वा तर्हि?
आम् महोदय.
हा अस्तु, तर्हि अग्रे तत्र व्यवहारः नाम किम् इति इदानीं तत्र द्वितीयकरपत्रं तत्र व्यवहारः इत्युक्ते किम् इति. अस्तु तर्हि तत्र धन्यवादः महोदय. अग्रे तत्र प्रेमलता भगिनी अग्रे पठति वा?
धन्यवादः महोदय.
अस्तु महोदय,
व्यवहारः इत्युक्ते किम् इति न्यायशास्त्रे.
व्यवहारः इत्युक्ते न्यायशास्त्रे व्यवहारशब्दः पारिभाषिकः ज्ञानजनकशब्दप्रयोगः इत्यर्थः. तत्र मात्रं शब्दप्रयोगः इति नोक्तं, गा गी इति वदामश्चेत् अयं शब्दप्रयोगस्तु भवति, किन्तु ज्ञानजनकशब्दप्रयोगः नास्ति. उच्यमानः शब्दः किमपि ज्ञानं जनयेत् यत्र शब्दप्रयोगेन ज्ञानं निष्पन्नं भवति, तादृशशब्दप्रयोगस्य व्यवहारः इति नाम. तर्हि अग्रे पठामि वा महोदय?
अस्तु अग्रे अपि पठतु भगिनि.
तर्हि
तत्र प्रायः गग्गा गिग्गि भवेत् भगिनि. तत्र मुद्रणदोषः इति मन्ये गग्गा गिग्गि. एतदेव तत्र साधारण उदाहरणं खलु. तत्र किमपि वदतु गग्गा गिग्गि वदतु इति तत्र बालकानाम् अथवा बालिकानां कृते वदामः.
गग्गा गिग्गि कक्का किक्कि अपि भवितुमर्हति.
हा इति सत्यं.
ज्ञानं न. तर्हि गग्गा गिग्गि इति शब्दप्रयोगेण किमपि ज्ञानं न निष्पन्नम्, अतः अयं व्यवहारो नास्ति. किन्तु घट अतीतः इति शब्दप्रयोगेण किञ्चित् ज्ञानं निष्पन्नं भवति, अतः अयं व्यवहारः इत्युच्यते. एतद् व्यवहार नाम लौकिकव्यवहारः इति नास्ति न्यायशास्त्रे. यत् पारिभाषिकपदः अस्ति
टेक्निकल् इति अर्थः. पारिभाषिक नाम टेक्निकल्
टेक्निकल् तत् तस्य अर्थः भवति ज्ञानजनकशब्दप्रयोगः इति. शब्दप्रयोगः इति इत्येव नोक्तं. शब्दप्रयोगः भव शब्दप्रयोगः इति ज्ञानजनकं भवेत्. केवलम् अक्षर मात्र गग्गा गिग्गि इति अक्षरमात्र उच्चारणेन तेषां ज्ञानं न भवति.
तत्र शब्दप्रयोगः नाम तत्र ध्वनिः इति चिन्तयामः. तत्र ध्वनिः तत्र केवलं शब्दप्रयोगः इति न उक्तं, किन्तु तेन शब्दप्रयोगेन ज्ञानं भवेत्, उत्पत्ति ज्ञानस्य उत्पत्तिः भवेत्.
तादृशशब्दप्रयोगस्य व्यवहारः इति नाम्ना न्यायशास्त्रे जायते. तर्हि एतत् गग्गा गिग्गि इति शब्दप्रयोगेन किम तदेव किमपि ज्ञानं.
तत्र गग्गा गिग्गि इति शब्दप्रयोगः अस्ति किन्तु व्यवहारः नास्ति.
व्यवहारः नास्ति.
शब्दप्रयोगः अस्ति किन्तु तेन ज्ञानं न उत्पन्नम् इति कृत्वा व्यवहारः नास्ति.
नास्ति.
हा किन्तु घटः अतीतः इति शब्दप्रयोगेन
किञ्चित् ज्ञानं भवति. तत् घटः
आसीत् किन्तु इदानीं नास्ति.
नास्ति आसीत् इति किञ्चित् ज्ञानं तस्य एतद् घट अतीत इति शब्दे ज्ञानम् उत्पन्नं भवति.
हा तत्र यदि कोऽपि वदति घटः अतीतः, वयं तत् शृण्मः, अस्माकं मनसि आत्मनि ज्ञानम् उत्पद्यते, किञ्चन ज्ञानम् उत्पद्यते. अतः तत्र घटः अतीतः इति शब्दप्रयोगः इति ध्वनिः व्यवहारः इति भवति
उच्यते.
न्यायशास्त्रे अस्तु समीचीनं भगिनि अस्तु धन्यवादः राजीव भगिनी तत्र समीचीनं वा भगिनि इदानीं तत्र
आं जि समीचीनम् इदानीम् अहं कथम् अवगच्छामि चेत् अर्थघटितशब्दं सर्वं
तत्र सत्यं सत्यं तत्र वाक्यं निरर्थकं न भवेत् अर्थयुक्तं
वाक्यं
अर्थसहितं वाक्यम् अथवा वाक्यस्य भागः किमपि हा इति समीचीनं भगिनि हा अस्तु अग्रे तत्र जयलक्ष्मी भगिनी अग्रे पठितवा
आं महोदय पठामि घटः अतीतः इति व्यवहारे कालकारणम् अधुना घटः अतीतः इति विशिष्टशब्दप्रयोगः कालरूपद्रव्यं विना न सम्भवति यतोहि अतीतः इति शब्दस्य कथनार्थं कालस्य अस्तित्वम् अपेक्षितं भविष्यति अभूत् इत्यादीनामपि तथैव प्रयोगार्थं कालः आवश्यकः कालस्य अस्तित्वम् अस्ति चेदेव कालः भवति चेदेव अग्रे भविष्यति श्वः ह्यः परह्यः इत्यादीनां प्रयोगं कर्तुं शक्नुमः यदि कालः एव न स्यात् तर्हि एतादृशशब्दप्रयोगः एव न भवति स्म अतः ईदृशशब्दप्रयोगं प्रति कालः कारणम् अतीतः अनागतः भविष्यति इत्यादिकम् किं पश्यति घटः अतीतः इति व्यवहारे कालः कारणं भवति इति उक्तं घटः इति द्रव्यमस्ति अतीतः इति वदामः चेत् तत्र कालस्य कालरूपद्रव्यं भवति घटः इति कालः विना कालरूपद्रव्यं विना न सम्भवति यतोहि अतीतः इति इत्युक्ते काले एव घटः घटस्य स्थितिः अस्ति तस्य संयोगः
अतीतः इति वदामश्चेत् तत्र कालस्य अवगमनं भवेत् खलु कालः इत्युक्ते
कालस्य उल्लेखः भवति अतीतः इति वदामः चेत् कालस्य उल्लेखः अस्ति काले एव घटः घटस्य स्थितिः अस्ति अतः भविष्यति अभूत् सर्वं वक्तव्यं चेत् अस्तित्वं कालस्य अस्तित्वं तत्र भवति एव इति उक्तम्
नाम तत्र
कालस्य
तत्र व्यवहारेव अस्तु तत्र घटः अतीतः इति व्यवहारे व्यवहारे नाम शब्द तत्र शब्दप्रयोगः विशिष्टशब्दप्रयोगः
ज्ञानजनकप्रयोग शब्दप्रयोगः भवति
तं प्रति कालः कारणम् इति वक्तुम् इच्छामः तादृशशब्दप्रयोगं प्रति कालः कारणम् अस्ति नाम कालेन विना एषः व्यवहारः न भवति केवलं शब्दप्रयोगः भवति खलु किन्तु विशिष्टशब्दप्रयोगः न भवति केवलं शब्दप्रयोगः भवति अतः तत्र व्यवहारम् इत्युक्ते केवलं शब्दप्रयोगः न किन्तु विशिष्टशब्दप्रयोगः ज्ञानजनकशब्दप्रयोगः अतः तत्र घटः अतीतः इति शब्दप्रयोगः अस्ति किन्तु तद् सः तत्र व्यवहारः भवति चेत् तत्र कालः भवेत्
सत्यं
नो चेत् निरर्थकं भवति घटः अतीतः इति निरर्थकं वाक्यं भवति तदानीं तत्र केवलं शब्दप्रयोगः भवति न तु व्यवहारः अतः कालं विना घटः अतीतः इति निरर्थकं वाक्यम् अतः कालः कारणमस्ति घटः अतीतः इति वाक्यं व्यवहाररूपेण भवति इति अतः तत्र कालः एव न स्यात् तर्हि एतादृशशब्दप्रयोगः एव न भवति स्म खलु न कर्तुं शक्नुमः अतः ईदृश नाम तत्र
अतीतः
ज्ञानजनकशब्दप्रयोगम् नाम उदाहरणानि दत्तानि सन्ति, किन्तु किन्तु तत्र ईदृशं नाम व्यवहाररूपशब्दप्रयोगः.
व्यवहाररूपशब्दप्रयोगं प्रति कालः कारणं भवति.
हा, नो चेत् अतीतः अनागतः भविष्यति इत्यादिकं निरर्थकं भवति.
निरर्थकं भवति इति.
अतः तत्र तत्र कपालः घटं प्रति कारणमिति कथं जानीमः? यदि कपालः नास्ति चेत् घटं न उत्पद्यते खलु, घटः न उत्पद्यते. अतः तत्र कपालस्य आवश्यकता अस्ति, कपालः कारणम् अस्ति घटं प्रति, यतोहि घटः कपालेन विना न उत्पद्यते. तथैव तत्र कालेन विना एतादृशप्रयोगः, शब्दप्रयोगाः, व्यवहाराः न भवेयुः. अतः कालः कारणम् इति स्वीकुर्मः. तत्र कालः कारणं भवति व्यवहारं, व्यवहारान् प्रति. समीचीनं खलु भगिनि?
हा, समीचीनम् महोदय.
अस्तु,
महोदय,
धन्यवादः भगिनि. अस्तु भगिनि, पृच्छतु भगिनि, दीप्ति भगिनि पृच्छतु.
विषये संशयः अस्ति. अत्र तु व्यवहारजनकं शब्दप्रयोगः, व्यवहारजनकं
व्यवहारजनकं ज्ञानजनकं शब्दप्रयोगः.
तत्तु कालः सम्बन्धः अस्ति. हौ इस् इट् कारणं? कालः कारणं,
कालः न कालः नास्ति चेत् घटः अतीतः इति वक्तुं शक्नु इति तस्मिन् अर्थः भवति वा? यदि तत्र कालः नास्ति चेत् घटः अतीतः इति वक्तुं शक्नुमः वा?
न शक्नुमः.
अतः तत्र एतादृशप्रयोगाः न भवेयुः. तत्र यदि कोऽपि वदति घटः अतीतः, किन्तु तस्य ज्ञानं नास्ति कालः इत्युक्ते किम् इति तस्य ज्ञानं नास्ति चेत् घटः अतीतः इति श्रुत्वा किं ज्ञानं न उत्पद्यते? अतः केवलं ध्वनिः भवति.
घटः कालः सम्बन्धः इट्स् एस्टाब्लिश्ड्. तत्तु घटः अतीतः वाक्य
न तत्र एतादृशप्रयोगाः वयं लौकिकरूपेण कुर्मः. यद्य अतः तत्र कालः इति द्रव्यम् अस्ति इति स्वीकुर्मः खलु. तत्र विना चिन्तनेन वयं कालः अस्ति इति स्वीकुर्मः खलु. एतादृशद्रव्यम् अस्ति इति स्वीकुर्मः खलु लोके, खलु? अतः एव तत्र घटः अतीतः, घटः भविष्यति, अहम् आगच्छामि, तद् भविष्यति, सः अनागतः, एतत् सर्वं वदामः खलु. अतः तत्र अत्र मूलकारणं नाम तत्र कालः इति किमपि भवेत्, कालः विना, कालं विना एतादृशप्रयोगाः न सम्भवन्ति खलु.
कारणम् इस् नाट् टु बि टेकन् एस् कास् हियर्.
न, कारणम् इत्युक्ते केवलम् एतदेव कारणम् इति नास्ति. कारण तत्र अनेकानि कारणानि भवन्ति, किन्तु एतदपि कारणम् इति नाम तत्र. अतः एव तत्र कपालः घटं प्रति कारणं, कपालद्वयं घटं प्रति कारणं. किन्तु केवलं कपालद्वयम् अस्ति चेत् तत्र किं घटस्य निर्माणं भवति वा?
न,
तत्र कुलालः भवेत्, जलं भवेत् खलु, चक्रं भवेत्. अतः तत्र अनेकानि कारणानि, कारणसामग्री अपेक्षिता भवति. कारणस्य समूहः अस्ति, केवलम् एकमेव कारणम् इति न इति अत्र चिन्तनं नास्ति. किन्तु कारणेषु कालः एकम् अस्ति इति. समीचीनं वा भगिनि? केवलं कालम् इति, कालः एव कारणम् इति न. कारणेषु अन्यतमः कालः अस्ति. अस्तु, अग्रे तत्र. धन्यवादः भगिनि. मूर्तिमहोदय, तत्र अद्य पठितुं शक्नोति वा, पठितुमिच्छति वा?
आचार्य
अस्तु तर्हि घटः अतीतः इति व्यवहारेण न न दृश्यते वा तत्र अस्तु अस्तु
दृश्यते
किञ्चित् पठित्वा एतावत् पठित्वा किञ्चित् वदतु वक्तुं शक्नोति वा तत्र किं पठितवान् तस्य विवरणं कर्तुं शक्नोति वा नो चेत् चिन्ता मास्तु अग्रे करोतु
अहं पठामि वा महोदय
कः उषा भगिनी अस्तु भगिनि पठतु भगिनि
घटः अतीतः इति व्यवहारेण एकं ज्ञानं निष्पन्नं आहत्य घटः अतीतः इत्यस्य कथनेन एकं विशिष्टं ज्ञानं व्युत्पन्नं भवति कीदृशम् इति चेत् घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् इति
अस्तु एतद् वाक्यं तस्य विवरणं कुर्मः किन्तु तत्र प्रथमतया घटः अतीतः इति यदि वदामः वयं जानीमः तत्र किमपि ज्ञानं उत्पद्यते यत् उत्पन्नं भवति नाम वयं किमपि अवगच्छामः ओ घटः अतीतः वा इति अतः विशिष्टज्ञानम् एकं विशिष्टज्ञानं
तथा अत्र घटः इति विशेष्यः अतीतः इति विशेषणं विशेषणम् अथवा प्रकारता
अस्तु अस्तु एकनिमेषः अस्तु अस्तु तर्हि तत्र अस्तु समीचीनं तत्र अस्तु घटः इति विशेष्यम् अतः तत्र ये तत्र वयं जानीमः साधारणतया तत् किं भवति विषयः अस्ति ज्ञानम् अस्ति खलु तयोः मध्ये कः भेदः विषयः अपि ज्ञानं तयोः मध्ये कः भेदः तत्र अयं घटः इति विषयः वा ज्ञानं वा
अयं घटः इति विषयः अयं घटः इति ज्ञानं
समीचीनम् अयं घटः इति ज्ञानम् अस्माकं आत्मनि अस्ति तस्य ज्ञानस्य विषयः अस्ति
घटः
समीचीनं हा तथैव अत्र घटः इति विषयः अस्ति किन्तु घटः विशेष्यः अस्ति अत्र यतोहि घटे किमपि विशेषणम् अस्ति तत्र घटः अतीतः घटः इति अस्ति अतः तत्र अतीतः इति अस्ति
घटे
इदानीं समीचीनं भगिनि हा यथा तत्र वयं किम् उक्तवन्तः पूर्वं तत्र उन्नतः बालकः इति तत्र उन्नतः विशेषणवाचकपदम् अस्ति न तु साक्षात् विशेषणं विशेषणम् उन्नतः इत्युक्ते बालकः इत्युक्ते उन्नतः अतः बालके विद्यमानम् औन्नत्यमेव विशेषणम् औन्नत्यमेव तत्र अन्येभ्यः बालकेभ्यः एतं बालकं पृथक् करोति इति कृत्वा औन्नत्यम् इति एव तत्र विशेषणम् अत्र अतीतः इति तस्य भावः अतीतत्वम् इति एव विशेषणं बहु समीचीनमस्ति भगिनि अतः अतीतत्वम् इति विशेषणं घटः इति विशेष्यः अस्ति चेत् तत्र किं भवति विषयता इति तस्य नामकरणम् अस्ति
विशेष्यतानिरूपकं या ज्ञानं भवति तज्ज्ञानमेव अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम्
नाम अतीतत्वे
प्रकारता अस्ति
अस्ति घटे विशेष्यता
विशेष्यता अस्ति
समीचीनं भगिनि हा तथैव अस्ति अपि घटनिष्ठविशेष्यता या अस्ति तया निरूपितं विशेषिता अस्य आशयः ज्ञानं तथैव पुनः अतीतत्वे अपि तत्र समीचीनं भगिनि अतः तत्र अतीतत्वनिष्ठप्रकारता निरूपकं
ज्ञानं
घटनिष्ठविशेष्यतानिरूपकं ज्ञानं भवति. समीचीनम्, उत्तमं भगिनी. हा, इदानीं तत्र एतस्य विषये अपि तत्र किञ्चित् पुनर्स्मरणमपि अग्रे लिखितमस्ति, तदपि भवती पठतु भगिनी. अतः ज्ञान
ज्ञानवाक्यस्य बोधार्थं विशेषणविशेष्यभावः. स्मर्यतां यत् घटः अतीतः इत्यस्मिन् प्रयोगे अतीतः गुणिवाचकशब्दः गुणस्य आश्रयं सूचयति. गुणिनि यः गुणः नाम विशेषणं येन विशिष्यते इति तु तस्य भावः अतीतत्वम्. ओके, स्मर्यतां यत् घटः अतीतः इत्यस्मिन् प्रयोगे अतीतः गुणिवाचकशब्दः गुणस्य आश्रयं सूचयति. ओके,
नाम अतीतः इत्युक्ते कः? घटः एव अतीतः. तत्र अतीतः इति घटे अस्ति वा? तत्र
अतीतः,
तत्र उन्नतः बालकः इति वदामः, तत्र बालके उन्नतः अस्ति वा न?
उन्नतत्वम् अस्ति.
हा, समीचीनं. हा, अतः तत्र गुणिवाचक शब्दः आश्रयं सूचयति, गुणं सूचयति, गुणं न सूचयति. अग्रे गुणिनि.
गुणिनि यः गुणः वर्तते नाम विशेषणं येन विशिष्यते इति तु तस्य भावः अतीतस्य भावः. गुणिनि इत्यत्र यः गुणः वर्तते, अत्र यः गुणः वर्तते इति घटः अतीतत्वं.
घटे गुणि इति पदस्य सप्तमी गुणिनि.
गुणिनि नाम विशेषणं येन
नामविशेषणं
येन विशिष्यते इति तु तस्य भावः अतीतत्वं. सो विशेषणं येन विशिष्यते, सो घटः विशिष्यते, केन सह विशिष्यते, तस्य केन माध्यमेन विशिष्यते, तस्य भावेन अतीतत्वेन. अतीतत्वम् इत्येव गुणः गुणिनी इति घटः.
गुणि इति तत् गुणि इति घटः. गुणिनी सप्तमी.
गुणिनी इति सप्तमी. सप्तमी गुणिन् इत्यस्य सप्तमी.
गुणि इति घटः. समीचीनम्. अग्रे यथा
अग्रे अतीतत्वेन घटः विशिष्यते. अतीतत्वेन घटः विशिष्यते यथा उन्नतः वृक्षः. ओ ओके, ओ
उत्तममस्ति भगिनि. अग्रे
ओके, ज्ञानरूपदीपस्य प्रकाशः विषयता. ज्ञानरूपदीपस्य प्रकाशः विषयता. घटः अतीतः इति एकं ज्ञानं. यथा पूर्वम् अयं घटः इति ज्ञाने घटः विषयः. अयं घटः इति
न तत्र यथा उन्नतः वृक्षः इति आसीत् खलु, तत्र अतीतत्वेन घटः विशिष्यते. यथा,
ओ अस्तु महोदय, सारी. यथा उन्नतः वृक्षः इति वाक्ये, यथा उन्नतः वृक्षः इति वाक्ये, उन्नतः इत्युक्ते वृक्षः एव. उन्नतशब्देन वृक्षस्य एव सङ्केतः. उन्नतः वृक्षः इति वाक्ये उन्नतः इत्युक्ते वृक्षः एव सूचयति उन्नतत्वम्
इत्युक्ते. तत्र कः उन्नतः इति प्रश्न अस्ति चेत्
वृक्षः उन्नतः.
अतः तत्र उन्नतः नाम वृक्षः इति एव भवति. तथैव
घटः अतीतः इति वाक्ये अतीतः इत्युक्ते घटः एव. विशेषणं विशेष्यं च द्वौ अपि परस्परभिन्नौ स्याताम्.
विशेषणं तत्र अतीतः इति विशेषणं भवितुम् अर्हति वा? न, यतोहि विशेषणं भिन्नं भवेत्. विशेष्यम् अपि विशेषणं परस्परभिन्नौ
स्याताम्.
स्याताम् तत्र यदि विशेषणं विशेषमेव अस्ति चेत् तत्र विशेष्येण पृथक् न भवति. विशेष्यं भिन्नम् अस्ति चेदेव विशेष्यम् अन्येभ्यः विद्यते. पृथक् पृथक् कर्तुं
शक्नुमः.
तत्र दीर्घकरपत्रं वयं पठितवन्तः खलु, तत्र विशेष्यं विशेषणं तस्मिन् विषये, अतः एतत् सर्वं तत्र स्मर्यते स्मारयति अत्र. अग्रे
तर्हि घटः विशेष्यम्, अतीतत्वं विशेषणम्
इति तावत्पर्यन्तम् अस्तु. अतः तत्र अत्र किमस्ति, घटः विशेष्यम् अस्ति, अतीतत्वं
विशेषणम्
अस्ति. घटः अतीतः इति प्रयोगे घटः विशेष्यम् अतीतत्वं
विशेषणम्.
अतीतत्वे प्रकारता अस्ति, अतीतत्वे प्रकारता अस्ति, घटे विशेष्यता अस्ति. समीचीनं भगिनी, हा उत्तममस्ति भगिनी, धन्यवादः.
धन्यवादः.
अस्तु अस्तु, समीचीनं भगिनी. अस्तु अग्रे तर्हि तत्र नीता भगिनी अग्रे, उपेन्द्रमहोदय अग्रे पठितुम् इच्छति वा?
नमस्ते आचार्यजी सर्वेभ्यः. घटः अतीतः ज्ञान दीपस्य ज्ञानरूपदीपस्य प्रकाशः विषयता. घटः अतीतः इति एकं ज्ञानम्. यथा पूर्वम् अयं घटः इति ज्ञाने घटः विषयः, अयं घटः इति ज्ञानं च विषयी, इनि प्रत्ययः नपुंसकलिङ्गे विषयी, विषयी शब्दे इनि प्रत्ययः नपुंसकलिङ्गे.
नाम तत्र अस्तु, तत्र एतावत् घटः अतीतः इति ज्ञानमस्ति खलु.
एकं वाक्यमस्ति, घटः अतीतः इति एकम्
इति ज्ञानमस्ति. तस्य अवगमनार्थं पूर्वं तत्र वयं चिन्तयामः, तत्र अयं घटः इति ज्ञानम् अस्ति खलु. अयं घटः, अयं घटः इति ज्ञाने तत्र विषयः कः?
घटः.
घटः विषयः नाम कोऽपि पदार्थः बहिः लोके अस्ति, सः विषयः इति वयं वदामः. अत्र घटः इति विषयः, ज्ञानस्य विषयः. ज्ञानं तु अस्माकम् आत्मनि यत् भवति, अयं घटः इति ज्ञानं, तत्र घटः इति विषयः. अयं घटः इति ज्ञानं विषयी भवति, नाम तस्य विषयः अस्ति. तत्र इनि प्रत्ययस्य उपयोगः अस्य अस्मिन् वा इति अर्थे भवति इनि प्रत्ययः. तत्र धनी, यस्य अथवा यस्मिन् धनः अस्ति, धनमस्ति, सः धनी. किन्तु पुल्लिङ्गे धनी इति दीर्घ इकारः भवति, धनीन् इति प्रातिपदिकं भवति. किन्तु नपुंसकलिङ्गे किं भवति? धनी इति ह्रस्व इकारः. तथैव अत्र विषयी इति ह्रस्व इकारः, विषयी. यतोहि ज्ञानमिति पदं नपुंसकलिङ्गपदम्, अतः विषयी
ज्ञानी विषयी भवति,
विषयी भवति, विषयी. यतोहि ज्ञानस्य विषयः अस्ति खलु. एतस्य ज्ञानस्य विषयः अस्ति. यस्य विषयः अस्ति सः विषयी. यस्य धनम् अस्ति सः धनी.
धनी.
यस्य विषयं विषयः अस्ति सः विषयी. पुल्लिङ्गे नपुंसकलिङ्गे विषयी, ह्रस्व इकारः. ज्ञानं, ज्ञानस्य विषयः अस्ति घटः, अतः एतस्य ज्ञानस्य विषयः अस्ति इति कृत्वा एतत् ज्ञानं विषयी. अग्रे
घटः इति विषये विषयता, विषयताः,
विषयता, विषयता, विषयता इत्येव तत् समीकुलं
विषयता,
विसर्गः नास्ति.
घटः, घटः इति विषये विषयता अयं
खलु
घटः.
न न, तत्र घटः इति विषयः अस्ति इति कृत्वा विषये विषयता अस्ति खलु, भावः. पुस्तके पुस्तकत्वम् अस्ति, पुस्तकता अस्ति, विषयता अस्ति. विषयत्वम् इति अपि वदामः समानार्थकपदम् अथवा विषयता. घटे विषयता अस्ति यतोहि विषय अस्ति अयं घटः इति ज्ञाने
अयं घटः इति ज्ञाने घटे विषयता अस्ति
ज्ञाने किम् अस्ति
विषयिता
विषयिता अस्ति यतोहि विषयी अस्ति
ज्ञाने विषयिता अस्ति
विषये विषयता अस्ति
विषये विषयता घटे विषयता अस्ति ज्ञाने विषयिता अस्ति
अस्ति समीचीनम् अग्रे
विषयता ज्ञानस्य प्रभा मनसि
नाम तत्र पूर्वं पूर्वं वयं दृष्टवन्तः तत्र दीपः आसीत् तत्र प्रभा इव तत्र गच्छति इति विषयता गच्छति
पेज् नम्बर् 33 आचार्य
ओ धन्यवादः भवन्ति अस्तु तत्र लिखामि अस्तु 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 धन्यवादः महोदय अतः तत्र चित्रं भवति तत्र चित्रं किमस्ति चित्रे किं किम् अस्ति एकवारं वदतु तत्र अयं घटः इति ज्ञाने किमस्ति
अयं घटः विषयिता अस्ति
विषयः इति घटः घटः तस्मिन् घटे किमस्ति विषयता अस्ति अतः तत्र एषः घटः कीदृशः विषयः अतः तत्र तत्र ज्ञाननिष्ठ विषयिता निरूपित विषयता
निरूपित विषयिता निरूपित विषयता आश्रयः
आश्रयः घटः अथवा अथवा घटनिष्ठ विषयता
निरूपित
निरूपकं
निरूपकं घटं
ज्ञानं
ज्ञानम्
इति इति अपि वयम् उक्तवन्तः घटनिष्ठ विषयता निरूपकं ज्ञानम् एतादृशप्रयोगः एव अत्र अपि दत्तमस्ति नाम तत्र घटनिष्ठविशेषतानिरूपकं ज्ञानं तादृशमेव अत्र अस्ति तत्र घटनिष्ठविषयतानिरूपकं निरूपकं ज्ञानं ज्ञानम् इति अस्तु समीचीनं महोदय अस्तु अत्र अत्रापि तत्र वाक्यानि सन्ति तदपि तानि अपि पठतु महोदय अस्य चित्रस्य
अस्य चित्रस्य वर्णनार्थं विभिन्नरीत्या वाक्यानि रचयितुं शक्यन्ते विषयतां लक्षीकृत्य विषयितां लक्षीकृत्य इत्यादिकं विषयता ज्ञानयोः कः सम्बन्धः इति चेत् घटनिष्ठविषयतानिरूपकं निरूपकं ज्ञानम् इति विशेषवाक्यम्
अतः तत्र एतस्य चित्रस्य वर्णनं कथं कुर्मः अथवा
घटनिष्ठविषयतानिरूपकं
ज्ञानं ज्ञानं कीदृशं तत्र अयं घटः इति ज्ञानं कीदृशं घटनिष्ठविषयतानिरूपकं ज्ञानम् अस्ति अयं घटः इति ज्ञानं कीदृशं घटनिष्ठविषयतानिरूपकं ज्ञानम् अस्ति अयं पटः इति तत्र
पटनिष्ठविषयतानिरूपकं
ज्ञानम् पुस्तकम् एतत् पुस्तकं पुस्तकनिष्ठविषयतानिरूपकं ज्ञानम् इति तादृशप्रयोगः तादृशवाक्यं भवति न्यायशास्त्रे अतः तत्र एतादृशदीर्घवाक्यं पठामश्चेत् मनसि क्लेशः मास्तु केवलं किं वदति अयं घटः इति ज्ञानम् इति वदति तावदेव खलु अतः तत्र एतादृशवाक्यं यदि पठामः एतादृशं चित्रम् अस्माकं मनसि भवेत् अपि एतादृशं चित्रं पश्यामः एतादृशवाक्यं रचितुं शक्येत तदा सुलभं भवति अस्तु अग्रे अन्य कोऽपि पठतु महोदय धन्यवादः महोदय धन्यवादः अस्तु अग्रे तत्र हा तत्र राजी भगिनी तत्र आरम्भे पठितवती पुनः भवती पठति वा
आं जि इयं च विषयता इयं च विषयता रूपा प्रभा घटे विद्यमान घटे विद्यमाना ज्ञानेन विना न भवति अतः अयं विषयता रूपप्रकाशः कस्य इति चेत् ज्ञानस्य एव अपि च अयं प्रकाशः यत्र पतति सः ज्ञानस्य विषयः इति उच्यते यथा अयं घटः इति ज्ञाने विषयता रूपा प्रभा घटे पतति अतः घटः ज्ञानस्य विषयः इयं च विषयता रूपा प्रभा घटे विद्यमाना ज्ञानेन विना न भवति
नाम तत्र घटः 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 पदार्थः घटः केवलं पदार्थः यदि अयं घटः इति कस्यापि ज्ञानं भवति तदा एव सः विषयः भवति खलु विषयः अपि पदार्थः तयोः मध्ये कः भेदः यदि कस्यापि ज्ञानमस्ति पदार्थस्य तदा एव पदार्थः विषयः भवति खलु
आं सत्यम्
अतः तत्र विषयः नाम तत्र प्रभा तत्र प्रभा भवति तत्र विषयतारूपा प्रभा घटे विद्यमाना घटे भवेत् यत् यथा तत्र पूर्वं चित्ररूपेण दर्शितमासीत् पुस्तके अतः तत्र तादृशविषयता ज्ञानेन विना न भवति खलु यतोहि ज्ञानस्य एव विषयः भवति खलु
सत्यम्
अतः एषः प्रकाशः विषयतारूपप्रकाशः कस्य अस्ति इत्युक्ते ज्ञानस्य एव खलु
ज्ञानस्य एव अस्ति
हा अपि च
अतः अयं विषयतारूपप्रकाशः कस्य इति चेत् ज्ञानस्य एव ज्ञानस्य एव प्रकाशः
तस्मिन् उपरि तत्र वयं दीपः दीपस्य तत्र प्रकाशः दीपस्य प्रकाशः कस्मिंश्चित् घटस्य उपरि पतति इति तदा एव तत्र तत्र घटः अस्ति इति जानीमः खलु अन्धकारः अस्ति चेत् तत्र घटः अस्ति न वा इति न दृश्यामः अन्धकारमध्ये तत्र पदार्थः भवति यदा तत्र तस्य उपरि प्रकाशः भवति तदा ज्ञानं भवति विषयः भवति तदा
विषयः अपि भवति अस्तु
अतः तत्र प्रभारूपं यत् पूर्वं केवलं प्रकाशः आसीत् इदानीं तत्र प्रभारूपं ज्ञानं खलु तत्र एतत् प्रसिद्ध उदाहरणं नाम खलु तत्र प्रकाशः अपि ज्ञानम्
आं सत्यं
तादृशम् अतः प्रकाशः ज्ञानस्य तत्र प्रकाशः कस्य इत्युक्ते ज्ञानस्य एव प्रकाशः अस्ति
प्रकाशः अस्तु अयं च प्रकाशः सोरि अपि च अयं प्रकाशः यत्र भवति सः ज्ञानस्य विषयः इति उच्यते सो कुत्र कुत्र प्रकाशः भवति तत्सर्वं ज्ञानस्य विषयः इति वयं वक्तुं शक्नुमः
वदामः नाम एषा प्रभा घटस्य उपरि पतति अतः इदानीं घटः विषयः एतस्य ज्ञानस्य तत्र प्रभारूप तत्र प्रकाशः एतस्य प्रकाशस्य विषयः एषः घटः एतस्य ज्ञानस्य विषयः एषः घटः इदानीं तत्र टार्च् इति चिन्तयामः अन्यस्मिन् स्थले तत्र प्रदर्शयामः तद् किं भवति अन्यत् किमपि इदानीं पुस्तकस्य उपरि प्रकाशः पतति अतः तत्र पुस्तकम् इति विषयः जातः प्रभारूप इदानीं नूतनज्ञानम् अस्ति खलु एतत् पुस्तकमिति नूतनज्ञानम् अतः नूतनज्ञानस्य विषयः पुस्तकम् इति अतः तत्र
यथा अयं घटः इति ज्ञाने विषयतारूपा प्रभा घटे पतति अतः घटः ज्ञानस्य विषयः सो वयं घटः अस्ति इति वयं यदा ज्ञातुं शक्नुमः तत्समये ज्ञातुं शक्नुमः कीदृशसन्दर्भे इत्युक्ते यत्र विषयतारूपप्रभा तस्मिन् पतति एक भवान् यथा उक्तवान् कर टार्च् अस्ति चेत् तस्य तस्य प्रभा कुत्र पतति इति वयं पश्यामः चेत् घटे वा अथवा पुस्तके वा पतति चेत् तद् ज्ञानस्य विषयः भवति.
तत्र अन्यस्मिन् पश्यामः अन्यस्य उपरि तत्र भवति चेत् अन्यत् ज्ञानं भवति, अन्यः विषयः अन्यत् ज्ञानम्. अतः विषयं ज्ञानं, विषयः अस्ति चेत् ज्ञानमस्ति, ज्ञानमस्ति चेत् विषयः अस्ति. परस्परनिरूपकनिरूप्य भावः तयोः मध्ये वर्तते.
अस्तु जि,
समीचीनं खलु? अस्तु, एतावत् वयं पठितवन्तः, समीचीनमस्ति. इदानीम् अग्रे गत्वा एतत् करपत्रं तत्र लिङ्क् अस्ति, अग्रेपि भवन्तः पठितुं शक्नुवन्ति. तत् कालस्य लक्षणवाक्यं तस्य परिशीलनं कृतम् अस्ति सोपानेन. तत्र सर्वे अंशाः तत्र वर्णिताः भवन्ति. अतः तत्र पठनेन बहु लाभः. अग्रिमे वर्गे तत्र यदि पठित्वा आगच्छन्ति अग्रिमे वर्गे सुलभतया तत्र समापयितुं शक्नुमः, अपि पुस्तके अग्रे गन्तुं शक्नुमः. अस्तु, तर्हि अत्र विरमामः. धन्यवादः, नमस्कारः,